नमस्कारः सर्वेभ्यः. सुभाषितं पश्यामः. वेदमूलमिदं ज्ञानं, भार्यामूलमिदं गृहं, कृषिमूलमिदं धान्यं, धनमूलमिदं जगत्. अर्थः एवमस्ति, वेदमूलमिदं ज्ञानं, वेद इस् द रूट् आफ् नालेज्. भार्या मूलमिदं गृहं, वैफ् इस् द रूट् आफ् फ़ेमिलि. कृषिमूलमिदं धान्यम्, एग्रिकल्चर् इस् द रूट् आफ् ग्रेन्. धनमूलमिदं जगत्, वेल्त् इस् द रूट् आफ् दिस् वर्ल्ड्. एवमस्ति सुभाषितम्. किञ्चित् ग्रहपाठम् अपि पश्यामः.
नमस्कार, पश्यामः. एकनिमिषम्. आरम्भं कुर्मः. प्रथमं अपर्णा भगिनी किं लिखितवती, पठतु.
आं महोदय, नमो नमः. पेज् 49, एक्ससैज् 3. वयं भारतमातरं वन्दामहे. सम्यक् अस्ति वा?
आम् आम्. प्रथमं परस्मैपदी पठतु.
ओके, वयं आं महोदय,
स्क्रीन् मध्ये अस्ति, इच्छति चेत्.
आं महोदय, वयं भारतमातरं प्रणमामः. वयं भारतमातरं वन्दामहे. शुड् डू द नेक्स्ट् वन् ओर्
अग्रिममपि करोतु.
ईश्वरः भक्तान् कष्टात् रक्षति. ईश्वरः भक्तान् कष्टात् त्रायते.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
अनिता भगिनी अग्रिमं करोतु.
आं महोदय, नमस्कारः. यूयं किं चिन्तयता, यूयं किं मन्यद्वे.
अग्रिमं.
तौ आकाशं पश्यतः, तौ आकाशं वीक्षेते.
महोदयः, ऐ हेव् वन् क्वेश्चन् हियर्.
आं भगिनि.
वीक्षते सम्यक् अस्ति वा उत ईक्षते सम्यक् अस्ति?
सम्यक् अस्ति.
दौ अपि सम्यक् वा?
यथा दत्तं सम्यक् एव.
ओके, धन्यवादः.
धन्यवादः भगिनि अनिता भगिनि. ओके, सो बेसिकली यू हेव् टु डू टू थिङ्ग्स्. ऐ थिङ्क् एव्रिबडि डिड् दिस् वेरि वेल्. यू हेव् टु अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् द परस्मैपदी क्रिया, रैट्? and pick a similar one from the list, as well as matching the purushaha vachanani cha. Eka vachane asti va, bho vachane asti va. Balakrishna Mahodaya, agrimam karotu.
यूयं किं चिन्तयथ
महोदय पञ्चमं
पञ्चमं ओके युवां सत्यं वदतः युवां सत्यं भाषेते
सम्यक् अग्रिममपि करोतु
बालिकाः चित्रं दृष्ट्वा तुष्यन्ति बालिकाः चित्रं दृष्ट्वा मोदन्ते
सम्यक् धन्यवादः महोदय हेमाङ्गी भगिनी तृतीयं द्विवचने पठतु
आम् युवां किं चिन्तयथ
उत्तमं भगिनि सम्यक् एकनिमिषं नाट् सो ईजि चतुर्थं
बहुवचने
चतुर्थं बहुवचने करोतु
ते आकाशं पश्यन्ति
आम् इदानीं द्वावपि आत्मनेपदी रूपाणि वदतु
युवां किं मन्यद्वे ते आकाशं वीक्षेते वीक्षन्ते ते आकाशं वीक्षन्ते
आम् तृतीयं पुनः वदतु
तृतीयं यूयं किं यूयं किं मन्यद्वे यूयं किं मन्यद्वे
ओके ओके द्विवचने वक्तुं शक्यते वा
आम् आम् महोदय अहं प्रयत्नं करोमि युवां युवां किं चिन्तये सोरि युवां किं मन्येदे
मन्येथे चिन्ता मास्तु भगिनि मन्येथे
थे थे अस्तु धन्यवादः
थेङ्क् यू फार् बीङ्ग् अ स्पोर्ट् भगिनि उत्तमं
धन्यवादः
भूमि भगिनी प्रथमं एकवचने वदतु
विच् वन्
नम्बर् वन् इन् बोत् परस्मैपदी एण्ड् आत्मनेपदी केन् यु ट्रै नम्बर् वन्
आम् परस्मैपदी इस् एकवचनम् ओके अहं भारतमातरं प्रणमामि अहं भारतमातरं वन्दे
सम्यक् उत्तमं द्वितीयं द्विवचने प्रयत्नं करोतु
ईश्वरः सो ईश्वरौ भक्तान् सो विच वन आई शुड डू भक्तः और ईश्वरः इन द्वितीय
ईश्वरः ईश्वरः
सो ईश्वरौ भक्तान् कष्टात् रक्षतः ईश्वरौ भक्तान् कष्टात् रक्षन्ते सारी नाट् रक्षत् सो त्रायन्ति
त्रायते प्रथम प्रथमपुरुषे एकवचने अस्ति त्रायते द्विवचने किं भवति
त्राये
उत्तम धन्यवाद a little bit of because they are very different I'm if you have too many issues you can tell me no problem
sure
धन्यवाद bear with me जया भगिनी अस्ति वा
अस्मि
अहमस्मि नमस्कारः महोदय नमस्कारः एकनिमिषम् ऐ थिङ्क् वि रीच् ओके केन् यु डू 5 and 6
अस्तु महोदय युवां सत्यं वदतः युवां सत्यं भाषेथे न सारि न वाट् डिड् ऐ रैट् युवां सत्यं वदतः युवां सत्यं भाषेथे
अग्रिमं
बालिकाः चित्रं दृष्ट्वा तुष्यन्ति बालिकाः चित्रं दृष्ट्वा मोदन्ते
मोदन्ते केन् यु ट्रै नम्बर् 6 इन् द्विवचनं द्वौ अपि परस्मैपदी अपि च आत्मनेपदी
बालिके चित्रं दृष्ट्वा दृष्ट्वा मोदेते
प्रथमं परस्मैपदी वदतु
बालिके चित्रं दृष्ट्वा तुष्यतः बालिके चित्रं दृष्ट्वा मोदेते
सम्यक् धन्यवादः
धन्यवादः
राजश्री भगिनी अग्रिमं करोतु
आं महोदय नमस्ते महोदय अहं देवं प्रणमामि अहं देवं वन्दे वयं विश्वशान्तिम् इच्छामः वयं विश्वशान्तिं कामयामहे
सम्यक् एकः प्रश्नः नम्बर् 7 केन् यु से इन् बहुवचनं फर् बोत् उत्तमपुरुष बहुवचने
वयं देवं प्रणमामः विश्वं वन्दामहे.
सम्यक्, उत्तमं भगिनि, धन्यवादः. रामेश्वरी भगिनी अग्रे अग्रिमं करोतु.
ते मार्गे सन्ति, ते मार्गे वर्तन्ते. त्वं कीर्तिं प्राप्नोषि, त्वं कीर्तिं लभसे.
दशमं बहुवचने वक्तुं शक्यते.
यूयं कीर्तिं प्राप्नुतः, यूयं कीर्तिं यूयं कीर्तिं लभध्वे.
परस्मैपदी पुनः वदतु.
विसर्गः नास्ति. त्वं कीर्तिं प्राप्नुथ. नो, वाट् वाट् ऐ एम डूइंग.
बहुवचने, चिन्ता मास्तु.
यूयं कीर्तिं प्राप्नुथ.
प्राप्नुथ आत्मनेपदे.
यूयं कीर्तिं लभध्वे.
उत्तमं, धन्यवादः.
धन्यवादः.
सरस्वती भगिनी
महोदय, नमस्ते.
नमस्ते. नवमं मध्यमपुरुषे बहुवचने वदतु भगिनि.
मध्यमपुरुषे बहुवचन. यूयं मार्गे स्थ, यूयं मार्गे स्थ. यूयं मार्गे परस्मै आत्मनेपदी एकं स्थ वर्धति, वर्तते, सन्ति,
वर्तते, वर्तते. यु हैव टु पिक द
वर्धद्वे.
सम्यक्, उत्तमम्. अष्टमं द्विवचने वदतु भगिनि.
द्विवचने वयम् आवां विश्वशान्तिम् इच्छावः. आवां विश्वशान्तिं कामावहे. आवां विश्वशान्तिं कामया वहे.
धन्यवादः भगिनि. ओके. Any more mental exercises needed for this before we move to the next one? Okay. Agre saramaha. Subodh Mahodaya, Pratama Dvayam Karotu.
Yuyam Nitaram Modadve Tau नितरां मोदेते. दुर्योधनः आचार्यम् उपसङ्गच्छते. त्वम् आचार्यम् उपसङ्गच्छसे.
सम्यक्. प्रथमं बहु मध्यम द्विवचने वदतु.
युवां नितरां मोदेते the one is already in with Dvivachana.
Yeah. And, okay. Uttamam Mahodaya. Dhanyavaad. Usha Bhagini Agrimadvayam Karutu.
Haan Mahodaya, Namaskaraha. Ekaha Samskrudena Bhashante Yuyam Samskrudena भाषद्वे बालाः स्पर्धन्ते भवन्तौ स्पर्धे स्पर्धेते
Instead of UM, can you do for Dvivachane?
UM, Kim Badri, UM, Samskravena, Bhashadve, Dvivachane, Yuva, Samskravena, Bhashethe.
And number four.
Dvivachana?
Number four in Bahuvachana.
Number one, Bhagavanta. Bhagavantaha Bhagavantaha Spardhanti.
Dhanyavada.
Dhanyavada.
Grimam Saitya Bhagini Astiva.
I have a question, Mahode. So when she did the Bahuvachan for Bhavantau, so that's Bhavantah, would it be Spardhadve? Or am I wrong?
Bhavantah Kaha Purushaha.
Bhavantah Pratham Purushaha. Okay, no, she's right.
Hello.
Sorry. Ah, Mahode.
Ah, chinta mastu. We have to like, chinta mastu. Saitya Bhagini Astiva, Agre, Agrimu Dvayam Karoti.
Ke Yuddhat Palayante, Kau Yuddhat Palayete. Vayam. धर्मरक्षणम् अपेक्षामहे आवां धर्मरक्षणम् अपेक्षावहे.
Can you say number 6 in
एकवचनम्? अहं धर्मरक्षणम् अपेक्षे
वा सम्यक् उत्तमं भगिनि. एण्ड् नम्बर् 5 आल्सो इन् एकवचनं
कः युद्धात् Palayate.
Don't overanalyze.
Kaha yuddhat palayate.
Samyak. Dhanyavada bhagini.
Dhanyavada mahode.
चित्रा भगिनी अग्रिमद्वयं करोतु.
नमस्ते महोदय.
नमस्ते.
नमस्ते.
वयं सः समू वीक्षते समूं वीक्षेते
वीक्षेथे थे
थे वीक्षेथे त्वं शयनचन्दने विराजसे ते शयनचन्दने विराजन्ते
For number 7 with UM, can you say? Madhyama Purusha Bahuvachane.
UM Sammu Vichatve.
Samyak. And also for number 8.
यूयं स्यन्दने विराजते
पुनः वदतु भगिनी न श्रूये
यूयं स्यन्दने विराजद्वे
सी लाइक दिस कैन यू सी माय कर्सर विराजद्वे बी लाइक
विराजद्वे
धन्यवादः
सम्यक् महोदय धन्यवादः महोदय
महोदय एकः प्रश्नः अस्ति सो वयं धर्मरक्षणं अपेक्षामहे मीन्स् एक्स्पेक्टिङ्ग् और् होप् वाट् डस् इट् अपेक्षामहे मीन्
Apeksha means we wish or hope, expect something like that. Apeksham karun. Prashna asti va? Great. So, Rameshwari Bhagini, 9th and 10th, can you do?
Kshatriyah yuddham labhate, bhavantah yuddham labhante. Te mahim bhunjate, tvam mahim bhunjase.
So here, and it is, so look at the, and it is my mistake, but it's okay, we haven't seen this. Number 10, can you read again? Te is kaha purushaha.
Saha tau te, pratham purushaha bahuvachanam.
So bhunja te asti kalu.
So this is
a different word, Bhagini. This is the bhujya dhatu. It is bhungte. So bhungte, bhunjate, bhunjate. So we haven't covered it. That's why I don't think anyone got this.
Okay.
Bhungte, bhunjate, bhunjate. So that is how the te is the bahuvachane asti. Te mahim bhunjate. So tvam mahim bhunkshe. We'll see that as we go ahead. Okay, I just wanted to bring that up. Chinta mastu. Because there are a lot of special things. I don't know why this was given, but we'll just make a mental note of that.
Bhungshe.
Bhungshe. Bhungshe bunjathe bhungdwe. It is a little bit of a tongue twister. So bhungte. Bhungte means like to protect, to preserve. It actually means to eat or consume, but in this context it means to protect or something like that.
Bhunjate te tuham papam.
Mahim is like the earth. So number 9, can you say in Madhyama Purusha Dvivachanam?
Yuvam. Yuvam, Yuddham, Labhethe.
Mahodaya. Anita Bhagini. Prashna asti va?
Mahodaya. 10th one. Swam Mahim Bhungshe, is it? Bhungshe?
Bhungshe. Yeah. No, Bhungshe it is. It's a different form, Bhagini.
Okay. Dhanyavadam.
It is Bhungte, Bhunjate, Bhunjate. That is how the Bahuvachanam is Bhunjate. And Bhungshe, Bhunjate, Bhungdwe.
What is the meaning of that sentence, Mahodaya?
It is to protect or preserve the te ityukte kim? De. Saha taute. They preserve or protect the earth. Bhungte usually means to eat or to consume. But in this context, it means different. It means to protect.
Okay. Okay, dhanyavada.
Bhungte, bhojanam, like that. Anita Bhagini, can you do 11 and 12?
Haan, Mahodaya. Kaha vishayan upasevate? Kau vishayan upasevete? Sarve bhagavata margam anuvartante. Vayam bhagavata margam anuvartamahe.
Samyak. So number 12, can you try in Madhyama Purusha Dvivachanam? Madhyama Purusha kim asti?
Ava.
Tvam.
Tvam avam vayam.
Tvam Madhyama Purusha Bhagini.
Tvam Bhagavatah Tvam Tvam
Tvam Yuvam Yuvam. So Yuvam with Yuvam, can you try?
Yeah. Yuvam Bhagavatah Margam Anuvartate Anuvartase Anuvartate Anuvarta Dve. So it will be the Anuvartete.
Samyak.
Anuvartete.
Uttamam Bhagini. All of you are doing excellent. So this is just to get you to think, okay? So nothing more than that. If you made a mistake, that's perfectly fine. We have just done this for the second day. Uttamam. I'm really impressed. Keep it up. So for this, you have to do homework. Sarve Shrunvantu. You have to do exercises. There is no other way. So once you do this, it'll become very easy, very clear. I would say even it becomes easy, even though you may not feel it now. So, Uttama. Okay, so now that you have mastered this, let's make it a little bit more complicated. Let's look at the Lot Lakar. Atmanepadi Lot Lakar. Okay, so here we have seen Pashyatu, Pashyatam, Pashyantu. What is this? Can you say what? Usha Bhagini, kim asti? Pashyatu, Pashyatam, Pashyantu.
Parasmaipadi, Lot Lakaraka. Lot Lakaraka. Bhavan Pashyatu. Bhavanto Pashyata. Bhavantaha Pashyantu.
Samyak. Can you say the...
Kshamyatam, Mahode.
Okay, Dhanyavada Bhagini. I think there is a lot of noise on your line. Subodh Mahodhya, Vaktum Shakyateva, Pashyatu, the 3x3, Purushaha Vachanani Cha. We have done that, Pashyatu, Ekanimisham. Okay, Pashyatu. Atra Dishtvapi Vaktum Shakyate.
Pashyatu, Pashyatam, Pashyantu, Pashya, Pashyatam, Pashyata, Pashyani, Pashyava, Pashyama.
Samyak. So this is the Lot Lakara for Parasmaipadi. Okay. So we have done all these exercises. I don't think we need to do this.
Dhanyavadaha Mahodaya.
Dhanyavada. Agre Saramaha, we'll look at the Lot Lakar. Bhumi Bhagini Patatu Avadheyam.
Mahoday. Avadheyam. Ek Vachanam, Dvivachan, Bahuvachanam. So, Bhavan, Pratham Purushaha, Bhavan, Saha, Vandatam, Bhavantau, Tau, Vandetam, Bhavantaha, Te, Vandantam. Madhyam Purushaha, Tvam, Vandaswa, Yuvam, Vande tham, yuyam, vandadvam. Uttam purushaha, aham vande, it's vande,
avam.
I thought so. It's vandai. Okay. Aham.
Vande would be what? Take an emission, Bhagini. Vande would be
vande is just atmanepadi, and this is Lot Lakar, so vandai.
Atmanepadi Lat Lakar.
Lat Lakar. And this is
be Vandai will be Lot.
Lot Lakar. So Uttam Purushaha Aham Vandai Avam Vandavahai Vayam Vandamahai.
Dhanyavad. So even though you may think this is even more confusing, once you get to know this, okay, and you may need some minor mind tricks. You may have to have your own, you know, code to figure this out. But it is, the Uttama Purush is very similar to the Lat Lakara, except that it is like Vande becomes Vandai. Au Atrasti, Atrasti. Okay, I think we can do this, so it'll be clear. Balakrishna Mahodaya Patativa.
Yathodaharanam Rikta Sthanani Urayata. Udaharanam
भवान् सः भवन्तौ तौ भवन्तः ते शोभते शोभतां शोभेते शोभेतां शोभन्ते शोभन्ताम्
So the first one is in the lat lakara and this is the lot. And remember, these are all for Atmanepadi forms. Okay? Shobate becomes Shobatam.
Because Sute is there.
Like Patati, Patatu, this is Shobate, Shobatam. Shobatam, Shobetam, Shobhantam. Prayatnam karotu agrimam. It'll be exactly the same.
Ramate, given. Ramatam, Ramete, Rametam, Ramante, Ramantam.
Samyak. Uttamam mahodaya. Dhanyavada. So again, this is also Grihapatam Karaniyam Eva. Agre Jaya Bhagini Karotu Agre.
Ayate. Ayate. Ayate Ayante. So I should say in Atmanepadi, right?
Yeah, so this is Atmanepadi, lat is given. Ramate, yeah. Ramete, Ramante is right. The lat lakar.
Okay,
that is the Vartaman kala, in other words. So you have to try the lot lakar.
Okay.
As per the example, you can look up here or up here. Yeah. It'll be the same thing.
Okay. Ayatam, Ayatam, Ayetam, Ayantam.
That's it.
Yeah.
Dhanyavada Bhagini.
Okay, Dhanyavada.
Rajshri Bhagini Agre Agriamam Prayatnam Kurutu.
Amodi. Mayate, Mayatam. Mayete, Mayetam, Mayante, Mayantam.
Samyak. Dhanyavada.
Dhanyavada.
So, just digest this and let this sink in. And Madhyama Purusha, okay, we'll complete this. Anita Bhagini Pratamam, Madhyama Purusha Karotu.
Amaya. Dhyotase, Dhyothethe, Dhyotadve, Dhyotaswa, Dhyotetham, Dhyotadvam.
Agrimam Prayatnam Karotu in the similar fashion.
Amaya. Sahase, Sahethe, Sahadve. So this will become Sahasva, Sahetham, Sahadvam.
Dhanyavada Bhagini. Yeah, initially you may have to look at this and because once it comes into your mind, it'll stick. I can assure you. Aparna Bhagini Agrimam Karotu.
Lajjase, Lajjasva, Lajjethe, Lajjetham, Lajjadve, Lajjadvam.
Lajjadvam.
Lajjadvam. Should I do the next one?
करोतु.
सज्जसे सज्जस्व सज्जेथे सज्जेथाम सज्जध्वे सज्जध्वम.
सम्यक्. धन्यवाद भगिनी.
धन्यवाद महोदय.
So they have given kind of the trick here. This is for the most common, okay? Not everything will follow this like we have seen in the last few examples, but mostly it will be like this. So only the end you can replace to change the lut to the lot. Saraswati Bhagini?
Varte, Vartai, Vartavahe, Vartavahai, Vartamahe, Vartamahai. Vidye, Vidyavahe, Vidyavahai, Vidyamahe, Vidyamahai.
Samyak. Dhanyavad Bhagini.
Mahodaya, the trick I am trying to remember, this is the first Prathama Purusha ends, everything is tam, tam, tam. You can think of a dance, tam, tam, tam. The Uttama Purusha, everything is I, like tai, tai.
yeah. And Uttama Purusha, just you have a I to the everything.
Dhanyavad Bhagini. That is interesting.
So tam, tam, this is antam, but hopefully you will know that. Always antam will be the bahuvachana. Prathama Purusha bahuvachana. Yeah, you have to come up with some tricks like that. There will be a lot
of... I so ends with I.
Yeah, right. Usha Bhagini Agrimam Karotu.
Atra. Tvam va? Udhaharana. Tvam.
Hiddhi. Uttama Purusha. Hiddhi.
Kiddhi. Kiddhi. Kiddhyavahe. Kiddhyamahe. Kiddhyai. Kiddhyavahai. Kiddhyamahai.
साहित्य भगिनी करोतु अग्रे.
स्विद्यावहे स्विद्यावहै स्विद्यामहे स्विद्यामहै.
सम्यक्. Okay. I think that's enough here. So, kripya grihe punasmaranam kuruvantu sarve. We'll do some home exercise also, but you have to, initially you may have to do some ratanam or have some, like Bhagini was saying, have some kind of, you know, mental note as to how to come about with this. Okay. Okay. So let us. Prashnaha Santiva. Otherwise, we'll do some homework and you can revise this at home just to so that you are a little more clearer. Agre Saramaha Danim. Okay, so let's look at Saptami Vibhakti. We didn't cover in more detail this time. So let's just look at this quickly here. Hemangi Bhagini, Atra Patatu, the left side.
Aam Mahodaya.
Saptami Vibhakti Janati Va?
Aam Mahodaya, Janami.
Aam, Uttamam, Patatu.
Maharajah Gaje Upavishati, Khagaha Akashe Viharanti, Anjaneyah Dhvaje Vilasati, छात्राः विद्यालये पठन्ति.
So all these are the saptami vibhakti. What are these, Bhagini?
Purushah.
What lingam vachanam इत्यादयः वदतु.
महाराजः प्रथमपुरुषः एकवचनं, गजे सप्तमी विभक्ति एकवचनं, खगाः बहुवचनं, प्रथमपुरुषः बहुवचनं, आकाशे सप्तमी विभक्ति प्रथमा एकवचनं, सॉरी. अञ्जनेयः प्रथमपुरुषः एकवचनं, ध्वजे सप्तमी विभक्ति एकवचनं, छात्राः बहुवचनं, विद्यालये सप्तमी विभक्ति एकवचनं.
सम्यक्,
धन्यवादः.
अञ्जनेयः प्रथमा विभक्ति एकवचनं.
प्रथमा विभक्ति एकवचनम्.
प्रथम पुरुषः इस् आल्वेस् फर् द क्रिया. ओके, विलसति. विलसति वदतु भगिनि.
विलसति प्रथमपुरुषः एकवचनं.
Can you say the 3x3 table for विलसति?
विलसति.
It will be like patati.
Yeah. Vilasati, vilasatah, vilasanti.
Agree.
Vilasi,
vilasati.
Yeah, vilasati prathama purusha. Idanim aham madhyama purusha vadami. विलसि विलसथः विलसथ
एकवचने विलससि भविष्यति.
विलससि विलसथः विलसथ.
उत्तमं भगिनि,
धन्यवादः. विलसामि विलसावः विलसामः.
अति उत्तमं,
धन्यवादः.
रामेश्वरी भगिनी अत्र पठतु.
शिशुः प्रेङ्खायाम् अस्ति, चित्रं वेदिकायाम् अस्ति, वर्णाः पिञ्छिकायाम् अस्ति, पिच्छिकायां सन्ति, जनाः वाटिकायां विहरन्ति.
सम्यक्. किञ्चित् पदपरिचयं ददातु कर्मपदस्य.
प्रेङ्खा आकारान्त श्रीलिङ्गं, श्रीलिङ्गः शब्दं प्रेङ्खा. सप्तमी विभक्ति प्रेक्षायां वेदिका आकारान्त श्रीलिङ्गशब्द वेदिका सप्तमी विभक्ति वेदिकायां पिच्छिका आकारान्त श्रीलिङ्ग शब्दः पिच्छिकायां सप्तमी विभक्ति वाटिका आकारान्त श्रीलिङ्गशब्द एकवचन आल् आर् इन् एकवचन एकवचनम्
सम्यक् उत्तमं भगिनि. सो द वन्स् आन् द लेफ्ट् आर् पुल्लिङ्ग, दिस् इस् स्त्रीलिङ्ग. साहित्या भगिनि अत्र पठतु.
बाणाः तूनीरे सन्ति. योद्धारः रणक्षेत्रे युध्यन्ते. श्रान्तः कुटीरे निद्राति. बालः गृहे तिष्ठति.
अत्रापि पठतु.
औषधं कूप्याम् अस्ति. नौका नद्याम् अस्ति. वस्तूनि प्रदर्शिन्यां सन्ति. जलं वाप्याम् अस्ति.
सम्यक्. धन्यवादः भगिनि. सो अगेन् हियर् दीस् आर् द पुल्लिङ्गशब्दाः, स्त्रीलिङ्गशब्दः.
क्षम्यतां महोदय, पुल्लिङ्गः वा नपुंसकलिङ्गः? गृहं.
गृहं. या या या. सम्यक् सम्यक्.
किन्तु
भगिनि, यु हेव् अ लाट् आफ् नाय्स् आन् युर् लैन्. केन् यु ट्रै वित् लैक् इफ् यु आर् यूसिङ्ग् अ हेड् सेट् ट्रै रिमूविङ्ग् इट् उषाभ. धन्यवादः.
इदानीं हेड् सेट् नयि.
Yeah, it's a little better, but still there is a lot of background.
I think it is due to the fan anyway. I'll just switch it up. Okay, thank you.
Prashna Santiva?
Aam Mahodeha. Atra Bana ha Tuni re Santi. Atra Tuni Strilinga Astiva?
Tuni re katam, see, there are ways of knowing this. Tuni raha is like this, whatever is given here. Tuni raha, it's like, what is it called?
Anvil, Mahodaya.
Anvil, yeah. Where you keep all the bow, the arrows.
The container
arrow.
For bows. Yeah.
It's called quiver.
Right, quiver. Exactly. Bhagini had a good point. Griham is Napunsakalingam.
And even like Kutiram, right? Kutiram.
Kutiram. Quickly let's do Dvivachanam and then we'll segue to something else. Anita Bhagini Patatu Dvivachane.
Amore Kinkinakyau Padayoho Staha Bataha Ratayoho Santi Palani Vrikshayoho Santi कङ्कणानि हस्तयोः सन्ति.
धन्यवादः. इट् इस् किङ्किण्यौ, किङ्किण्यौ पादयोः. धन्यवादः भगिनी. जया भगिनी अग्रे पठतु.
पर्णानि लतयोः सन्ति, यात्रिकाः नौकयोः सन्ति, वस्त्राणि पेटिकयोः सन्ति, पुस्तकानि निधानिकयोः सन्ति.
किञ्चित् वदतु, दीस् वर्ड्स् किम् अस्ति?
लता आकारान्त स्त्रीलिङ्ग लता लतयोः. लतयोः इस् द्विवचनम्.
का विभक्तिः?
सप्तमी द्विवचनं, सप्तमी विभक्तिवचनं. लतयोः लताशब्दं द्विवचनं सप्तमी विभक्ति. नौकयोः पेटिका निधानिका निधानिकयोः.
धन्यवादः भगिनि.
धन्यवादः.
ओके, विल डु वन् बहुवचनम् आल्सो एण्ड् देन् विल् मूव् आन्. अपर्णा भगिनी पठतु.
आं महोदय. जनाः मार्गेषु गच्छन्ति, खड्गाः कोशेषु सन्ति, वानराः वृक्षेषु क्रीडन्ति, विचाराः ग्रन्थेषु भवन्ति.
अत्रापि पठतु.
सर्पाः शाखासु सञ्चरन्ति, वार्ताः पत्रिकासु सन्ति, सिंहाः गुहासु वसन्ति, छात्राः वाटिकासु विहरन्ति.
धन्यवादः. सो डिड् यु नो हौ वाट् विल् बी द प्रथमा विभक्ति एकवचनं फार् दीस्? केन् यु से?
सो फार् शाखा, शाखा इस् आकारान्त स्त्रीलिङ्ग एण्ड् शाखासु इस् बहुवचनं सप्तमी विभक्ति आफ् शाखा. And same with patrika, guha, vatika, they are all akaranta strilinga and they are all the bahuvachan saptami vibhakti form of patrika, guha and vatika.
Okay, uttama. Dhanyavad bhagini.
Dhanyavad mohode.
So this also, please look at it, and you can also look at this just to so that you get the idea for the different okay, akaranta, ikaranta, akaranta and all that. I'm just doing this because I don't think we covered the saptami vibhakti formally. I think we did do it in level 1, but this is just like a quick, you know, brush up, and we'll continue in the next class. इदानीम् एकां कथां पश्यामः.
महोदय, ऐ वाण्ट् टु पायिण्ट् वन् थिङ्ग् अबौट् दि सप्तमी विभक्ति बहुवचनं. आल् प्रातिपदिक आल् शब्द एक्सेप्ट् आकारान्त स्त्रीलिङ्ग एण्ड्स् वित् सु, एव्रिथिङ्ग् एल्स् विल् बि शु. Antima shu. So the mnemonic I have is all wear shu except mala.
Okay. Very good, Bhagini. Okay.
कथां पश्यामः, सरलमेव अस्ति, पठामः, किञ्चित् भिन्न वार्ता अस्ति. राजश्री भगिनी आरम्भं करोतु, प्रथमपरिच्छेदं पठतु.
नमस्ते भगिनि.
नमस्ते.
भलवान् कः? पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत्. तत्र याज्ञवल्क्यः नाम महर्षि वसति स्म. सः कदाचित् श्येनमुखात् पतिताम् एकां मूषिकां दृष्टवान्. करुणया सः तां मूषिकाम् आश्रमं नीतवान्. तत्र मन्त्रबलेन तां कन्यकां कृतवान्. याज्ञवल्क्यस्य अपत्यानि न आसन्, अतः तां कन्यकां स्वपुत्रीम् इव पालितवान् सः.
सारं किञ्चित् वदतु, किम् अवगतम्?
गङ्गातीरे याज्ञवल्क्य नाम महर्षि वसति स्म. श्येनमुखात् मने किं
बर्ड् ईगल्.
श्येनमुखात् मूषिकां, एकं मूषिकां श्येनमुखात् सः दृष्टवान्. तत् मूषिकायाः सः मूषिकाम् आश्रम नीतवान्. तत्र योगबलेन मन्त्रबलेन कन्यां कृतवान्. तत् मूषिकां कन्यकां कृतवान्. तस्य महर्षि याज्ञवल्क्यस्य पुत्रः न पुत्रः पुत्री न आसन्, अतः सः तत् कन्यकां स्वपुत्रीम् इव पालितवान्.
धन्यवादः भगिनि. सरलमेव अस्ति. अग्रिमपरिच्छेदः सुबोध महोदय.
सरला भगिनी, एकः प्रश्नः अस्ति. वाट् इस् द मीनिङ्ग् आफ् कन्यकां, लैक् इन् विच् विभक्ति इस् दट् वन्?
द्वितीया विभक्ति, तां कन्यकां कृतवान्.
ओके, बट् इट्स् कन्या एण्ड् कन्यकां द सेम्? लैक् कन्यका एण्ड् कन्या
आर् द सेम्? या, यु केन् से कन्यका आल्सो.
ओके, धन्यवादः.
Bhagini, in the third sentence, that Mushikam, what Bhumi Bhagini Vadatu, Mushikam Shimasti.
Mushikam is also the Dvitiya Vibhakti. I don't know why I asked this Vibhakti. I knew it was Dvitiya Vibhakti. I was asking about like Kanyakam, like what is the meaning of Kanyakam. I don't know why I asked Vibhakti. Because so, generally we say Kanya, right? So it's Kanyaka. First time I heard like Kanyaka, so that's why.
Okay, so what lingam is this Mushikam?
Mushika is a strilinga. So Mushikaha is a mouse. And the like female mouse is a mushika. So
mushakaha is a pullingi. Mushakaha, mushika.
Mushika, mushakaha. Yeah, right. Kshamyatam.
No problem. Agre, Subodh Mahodaya, patatu.
Aam, Mahodaya. Kalantare sa kanyaka vivaha yogya jata. Yagnya valkyaha. सूर्येण सह तस्याः विवाहं कारयितुं दृष्टवान्. अतः
सः
इष्टवान्, एक्स्क्यूस् मी, क्षम्यताम्. अतः सः पुत्रीं पृष्टवान्, भवती किं सूर्यं परिणेष्यति इति. टैम्
girl was of marriage age, and she became old enough to get married, and Agnivalka wanted to get her to get married to Surya, and he asks her, are you going to get married, are you going to get married to Surya?
Parivesh parineshyati bhavishyat kalati kim suryam parivesh iti prashnam. Dhanyavada Modi.
Dhanyavada.
Agrimam Rameshwari bhagini patatu tada arabhya.
तदा सा उक्तवती, अहं सूर्यस्य तापं सोढुं न शक्नोमि, अतः इतोपि उत्तमं अन्यं वरं भवान् सूचयतु इति. ऋषिः सूर्यम् एव पृष्टवान्, भगवन् भवतः अपेक्षया उत्तमः वरः कः इति. तदा सा उक्तवती, अहं सूर्यस्य तापम् आतपं सहनं न कर्तुं शक्नोमि, अतः सूर्यस्य श्रेष्ठम् श्रेष्ठम् अन्यं वरं सूचयतु. याज्ञवल्क्य ऋषिः सूर्यं पृष्टवान्, सूर्यस्य अपेक्षया उत्तमः वरः कः इति. सो शी सेयिङ्ग् कण्ट् टेक् द सन् लैट्, सो इट्स् वेरि हार्श्. सो मै एस् कम्पेर्ड् टु सूर्य लैक् मोर् more eligible groom he should find for her. So Yajnavalkya Rishi asked Suryam, Suryah, so as compared to you, who is greater than you, like who is eligible groom for kanya?
भगिनि अपेक्षया किञ्चित् वदतु किम् अस्ति.
अपेक्षया तृतीया विभक्ति आकारान्त श्रीलिङ्गशब्द अपेक्षा अपेक्षया
अपेक्षया षष्ठी भवतः अपेक्षया यूजुवलि या इट्स् कम्पेर्ड् टु यू यूजुवलि दट्स् ग्रेटर्. धन्यवादः अनिता भगिनी, अग्रिम परिच्छेदं पठतु.
आम् भगिनि, सूर्यः उक्तवान् मेधः मां मेघः माम् माम् आच्छाद्य तिष्ठति, सः मम अपेक्षया बलवान् योग्यः चापि इति.
अग्रिमवाक्यं,
ऋषिः मेघम् आहूतवान्, पुनः पुत्रीं पृष्टवान्, भवती एतं परिणेष्यति किम् इति.
वदतु किञ्चित् किम् अवगतवती.
सूर्यः वदति मेघः इस् लैक् बेटर् देन् मी, माम् आगच्छ तिष्ठति, सः मम अपेक्षया बलवान्. सो कम्पेर् टु मी like she is like much like stronger, yogyah cha api, yogyah api asti, saha yogyah api asti.
Megha ityukte kim, megha kaha?
Megha means like cloud. Cloud
achadya. Achadya.
माम् आच्छाद्य तिष्ठति. आच्छाद्य ऐ लैक् प्रस्यूम् बेटर् ऐ एम् नाट् श्योर्
नो ही कवर्स् मी सो ही कवर्स् मी एण्ड् आच्छाद्य
he always covers me achadya tishtati he always covers me and stands or something like that saha mama apekshaya balavan yogya cha api and then like rishi megham ahutavan ahutavan means invites him or something like that punaha putrim prishtavan or like rishi considers megha and he asks putri bhavati etam parineshyati kim will you marry megha what is what here
dhanyawad balakrishna mahoday agrima vakya dvayam pat
namaste bhagini va uktavati एतस्य वर्णः कृष्णः अतः एषः मास्तु इतोपि उत्तमं वरं भवान् सूचयतु इति. ऋषिः मेघं पृष्टवान्. मेघः उक्तवान् वायुः सहस्रधा मम
वदतु वाक्यत्रयं किं किम् अवगतवान् वदतु अत्र.
सा उक्तवती शी टोल्ड् एतस्य वर्णः कृष्णः इस् ब्लाक् देट् मेघा इस् ब्लाक् देर् फोर् अतः एषः मास्तु ऐ डोण्ट् वाण्ट् देट् इतोपि उत्तमं वरं भवान् सूचयतु बेटर् प्लीस् सजेस्ट् सम्थिङ्ग् बेटर् बेटर् ग्रूम् ऋषिः मेघं पृष्टवान्. मेघः उक्तवान् वायुः सहस्रधा मम देट् वायु इस् बेटर् देन् मी बिकास् बै 1000 टैम्स्
तत्र तत् वाक्यं पठतु. सहस्रधा विभागं
yes 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 he makes me 1000 pieces vibhagam karoti atah sah eva mama apekshaya balavan iti yes therefore he is stronger than me balavan stronger
dhanyawad ma saraswati bhagini agrimam agrimam vakyam
ऋषिः वायुम् आहूतवान् परन्तु पुत्री वायुम् अपि न अङ्गीकृतवती. कतोपि बलवान् कः अस्ति इति पृष्टवती. इतोपि बलवान् कः अस्ति इति पृष्टवती. अहं पर्वतं कम्पयितुं न शक्नोमि अतः पर्वतः एव बलवान् इति वायुः उक्तवान्. अनन्तरं ऋषिः पर्वतम् आहूतवान्. ऋषि इन्वैट्स् वायुः दट् इस् एर् अण्ड् बट् अगेन् द डाटर् रिजेक्ट्स् or does not accept Vayu also. Is there anybody else more stronger than Vayu, she asked. I cannot pass through or I cannot move pass through the mountain. So mountain is stronger than me. That's what the wind Vayu says. After that, Rishi invites mountain.
Kampayitu means kampanam, shake. I cannot shake the mountain.
Yeah. Shake the mountain.
एव बलवान् इति. अनन्तरं ऋषिपर्वतम् आहूतवान्. धन्यवादः. अपर्णा भगिनी परिच्छेद एकनिमिष पठतु इदानीं.
परन्तु पर्वतः उक्तवान्, यद्यपि अहं बलवान् तथापि मूषिकः मम शरीरे सर्वत्र बिलं करोति, अतः मूषिकः एव मम अपेक्षया बलवान् इति. ऋषिः मूषिकम् आहूतवान्, पुत्रीं पृष्टवान्, भवती एतं परिणेष्यति किम् इति. सा सन्तोषेण अङ्गीकृतवती. अनन्तरं ऋषिः ता मूषिकां कृत्वा मूषकेण सह तस्याः विवाहं कारितवान्. So the parvatam, the mountain says that even though I am very strong, the mouse has made so many holes in my body, therefore he is more stronger than me. And the Rushihi then invites the mouse and asks the daughter, will you marry him? And she happily agrees to the marriage, and the Rushi then converts her back to a lady mouse and does the vivaham of the two.
Samyak bhagini
parineshati shabda parichayam dadatu bhagini parineshati.
Parineshati is bhavishyat kalam. लट् लकार परिणेष्यति. सो परिणय करोति लैक् देट्.
धन्यवादः भगिनि.
धन्यवादः
भगिनि. लट् लकार लुट् लकार
लुट् लकार लुट् लकार भविष्यत्
What is the moral of the story?
Bhavati chintayati.
I think the
mushika asti kila sa mushika eva asit sa mushakam parinetum icchasi.
So even though she is given many different choices, she ultimately chooses for one of her own kind. So even after the outer form was that of Yuvati, her like inner form may be of the Mushika.
Astu. Prarthana muktva samapayama iti manne. Bhumi bhagini prarthama santimantram vadatu.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः.
धन्यवादः सर्वेभ्यः. नमस्कारः.
धन्यवादः.
धन्यवादः.